अथ पुंसदसूध्यायः श्रीभगवान् उवाच ऊर्ध्वमूलमथ शाखो माश्वत्थं प्राहुरव्ययम् छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवे अधस्तूर्णं प्रसितास्तस्य शाख गुणप्रवृद्धायुषयप्रबालास्तमूलान्यनुसन्तुतानि कर्मानुबन्धीनि मनुष्यलोके न रूपमस्येह तथोपलभ्यते सम्प्रतिष्ठा अश्वत्थमेनं सुविरूढमूल न सङ्गशस्त्रेण गृहेण चेत्वा ततः पदं तत्परिमार्जितव्यं यस्मिन् गोपालनिवर्तन्ति तमेव चार्यं पुरुषं प्रपद्ये यतः प्रवृत्ते प्रसिता पुराणी निर्माणमोहाचितसङ्गदोषा अध्यात्मविद्या विनिवृत्तकामा सुखदुःखसङ्गै गच्छन्त्यमूढः पदमव्ययन्त न तद्भासदते सूर्यो न शशाङ्को न पावको यद्गत्वा नैवतन्ते तद्धाम परमं मम नमैवांशो जीवलोके जीवभूतः सनातन मनसष्ठानेन्द्रियाणि प्रकृतिस्थानि कर्षति शरीरं यद्वाप्नोति यच्चाप्योत्क्रामतीश्वर देहे त्वैतानि संयाति वायुर्गन्धानि वासया श्रोत्रं चक्षुः स्पर्शनं च रसनघ्राणमेव च अभीष्टाय मनस्ताय विषयानुपसेवते योत्कामन्तं स्थितमपि संज्ञानं वा गुणान्वितम् विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष यतन्तो योगिनस्तैनं पश्यन्त्यात्मन्यवस्थितं यतन्तो प्रकृतात्मानो नैनं पश्यन्त्यचेतस यदा दैत्यगतं त्वेदो जगद्भासयते किलं यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकं गामावेश्यते भूत करी भार मोज सा उष्ण सौषधि सर्वा सोमोत्मक अहंगईश्वन भूवा प्राणीनाश्रित प्राणपान सामोक्तम चतुर्विद सर्वशाऊषो माता चेव्यानमोन सर्वै ग्रहमेव वेद्यो वेदान्त कृद्वेदेव च वायुमौ पुरुषौ लोके क्षरस्याक्षर एव च क्षरः सर्वाणि भूतानि उष्णस्थोक्षर उच्यते उत्तमः पुरुषस्तन्य परमात्मेतुदारिव यो लोकत्रयमाविश्य विभार्त्यव्यय ईश्वर यस्मात्क्षरमतीतोह माक्षरादपि चोत्तम कथोऽस्मि लोके विलेत प्रसितः पुरुषोत्तम यो मामेवमसंयोजो जानाति पुरुषोत्तमम् स सर्वविद् भजति माम् सर्वभारेण भारत इति गुह्यतमम् शास्त्र निजमुक्तम् मयानव एतद्बोध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत कृतकृत्यश्च भारत ॐ तत्सदे श्रीमद्भगवद्गीतासुपनिषत्सुविद्यायां योगशास्त्रे श्रीकृष्णादिसंवादे पुरुषोत्तमयोगानां पञ्चदशः